युनेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य अन्तर्गतम् प्रतिनिधिसभायाः प्रत्यक्षपक्षे इदानीं यावत् अष्टपञ्चाशदधिकशतस्य स्थानानां मतपरिणामः उद्घुष्टो वर्तते। इदानीं यावत् नेपाली कांग्रेस दलम् त्रिपञ्चाशति, नेकपा एमाले दलम् द्वाचत्वारिंशति, नेकपा माओवादी केन्द्रम् सप्तदशसु, नेकपा एकीकृत समाजवादी दलम् च दशसु स्थानेषु विजयम् प्राप्तवन्ती सन्ति। राष्ट्रिय प्रजातन्त्र दलम्, राष्ट्रिय स्वतन्त्र दलम्, जनता समाजवादी दलम् च प्रतिदलम् सप्तसु स्थानेषु विजयम् लब्धवन्ती वर्तन्ते। अन्येषु स्थानेषु इतराणि दलानि स्वतन्त्र प्रत्याशिनश्च विजयिनः संवृत्ताः सन्ति। मतगणनायाः इदानीं यावत् प्राप्तस्य परिणामस्य अनुसारेण प्रतिनिधिसभायाः समानुपातिक पक्षे नेकपा एमाले दलम् अग्रस्थाने वर्तते। चतुर्नवत्याम् लक्ष्येषु एकनवत्याम् सहस्रेषु च मतेषु परिगणितेषु सत्सु नेकपा एमाले दलम् पञ्चविंशतिम् लक्षाणि सप्ततिम् सहस्राणि द्वाचत्वारिंशदधिक शतञ्च मतानि प्राप्तवद् अस्ति। नेपाली कांग्रेस दलम् चतुर्विंशतिम् लक्षाणि अष्टात्रिंशत् सहस्राणि एकादश च मतानि लब्धवद् वर्तते। एवमेव नेकपा माओवादी केन्द्रेण दश लक्षाणि द्वानवतिः सहस्राणि षट्त्रिंशदधिक पञ्चशतञ्च, राष्ट्रिय स्वतन्त्र दलेन च दश लक्षाणि सप्ततिम् सहस्राणि पञ्चपञ्चाशदधिक शतञ्च मतानि प्राप्तानि सन्ति। अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य मतपरिणाम प्राप्तिक्रमस्य अन्तिमचरणे पञ्चदलीय सत्ता गठबन्धनस्य शीर्षनेतृणां मध्ये मेलवार्ता विमर्शनं च प्रारब्धे स्तः। प्रधानमन्त्रिणः नेपाली कांग्रेस दलस्य सभापतेश्च शेरबहादुरदेवाभिधस्य, नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य, नेकपा एकीकृत समाजवादिनः अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये नवीन सर्वकार संगठनस्य विषये यो विमर्शनमा अवगत। प्रधानमन्त्रिणा देवाभिधेन सह बीते पृथक पृथक मेलने अध्यक्षद्वयम् दाहाल नेपालश्च पञ्चदलीयम् गठबन्धनम् इतोऽपि सबलीकृत्य गठबन्धनस्यैव नेतृत्वे आगामि सर्वकारस्य संगठनस्य विषये व्यमृशताम् इति प्रधानमन्त्रिणः देवाभिधस्य संचार प्रमुख गोविन्द परियार अज्ञापयत। बालुवाटारा वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने एतेषाम् मध्ये नवीन सर्वकारस्य संगठनम् राष्ट्रपतिः शक्त्यावण्टनम् चेति विषयेषु विमृष्टम् आसीत्। गठबन्धनेन मतैक्येन अग्रे वर्धितव्यमिति त्रयाणां शीर्ष नेतृणां निष्कर्षोस्तीति संचार प्रमुख परियार अगदत। सुनसरी जनपदस्य चतुर्थ निर्वाचन क्षेत्रस्य मतगणना सुचारू चालिता नास्ति। शनिश्चरवासरे रविवासरे च वारद्वयम् सर्वदलीयोपवेशे उपविष्टे सत्यपि विवाद समाधानाभावात् मतगणना अनिश्चिता वर्तते। नेपाली कांग्रेस दलस्य पक्षतः सुनसरी जनपदस्य चतुर्थ निर्वाचन क्षेत्रात् प्रतिनिधिसभायाः सदस्यपदे प्रस्तुत प्रत्याशितेन संचार सूचना प्रविधि मन्त्रिणा ज्ञानेन्द्र बहादुर कार्किणा गणितानां मतपत्राणां पुनर्गणनाम् अभियाच्य निवेदनं दत्तं वर्तते। रविवासरे कार्किणा दत्तं निवेदनं निर्वाचन आयोगं प्रेषितं, सदापि प्रतिक्रिया न प्राप्तेति मुख्य निर्वाचनाधिकृतः अर्जुन अधिकारी अवदत्। निर्वाचनायोगेन उदयपुर जनपदस्य प्रथम निर्वाचन क्षेत्रे मतगणना कार्याय नैरन्तर्यं प्रदातुम् आदिष्टमस्ति। मतगणनायाः प्राग् विहितायाः सहमतेः आधारेण मतगणनायै नैरन्तर्यं प्रदातुं मुख्य निर्वाचनाधिकृतस्य कार्यालयः आयोगेन निर्दिष्टोऽस्ति। निर्वाचनायोगेन प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचने सहभागिनी राजनीतिकदलानि प्रत्याशिनश्च परिणाम घोषणायाः पञ्चत्रिंशतो दिनानाम् अभ्यन्तरे निर्वाचनस्य व्ययस्य विवरणं प्रस्तोतुं निर्दिष्टाः सन्ति। प्रत्याशिना निर्वाचनस्य समय प्रयुक्तं कोषागारीयाभिलेख विवरणं व्ययकर्तुः पदाधिकारिणः नाम च उल्लेखनीय भवत। आयोगेन निर्धारितायाः संरचनायाः अनुसारेण व्ययविवरणस्य प्रस्तुत्यै निर्दिशता प्रत्यक्ष प्रणाल्याः पक्षे प्रस्तुत मनोनयन पत्रैः प्रत्याशिभिः प्रतिनिधि सभा सदस्य निर्वाचना अधिनियमस्य अनुसारेण सम्बद्ध प्रदेशे सम्बद्ध जनपद निर्वाचन कार्यालये च एतद् विक्रम वर्षीयायाः प्रतिनिधि सभा सदस्य प्रदेश सभा सदस्य निर्वाचन निर्देशिकायाः अनुसूच्याः अनुसारेण निर्वाचनस्य व्यय विवरणं प्रस्तोतव्यम् अस्तीति ज्ञापितं वर्तते। समानुपातिक निर्वाचन प्रणाल्याः पक्षे प्रस्तुतान्तर सूचीभिः राजनैतिक दलैः निर्वाचन परिणामस्य घोषणायाः पञ्चत्रिंशतो दिनानाम् अभ्यन्तरे प्रतिनिधि सभायाः सदस्य पदाय प्रतिनिधि सभा सदस्य समानुपातिक निर्वाचन निर्देशिकायाः निर्धारित संरचनायाः अनुसारेण आयोगे व्यय विवरणं प्रस्तुतव्यं वर्तते। नेकपा एमाले दलस्य उपाध्यक्ष सुभाष नेवांग कथयति निर्वाचनस्य परिणामेन लोकतन्त्रस्य सुन्दर स्वस्थ प्रतिस्पर्धायाः राजनीतिः अग्रे वर्धिष्यति इति सन्देशः प्रदत्तो वर्तते। त्रिभुवनान्तर्राष्ट्रिय विमानस्थले पत्रकारैश्च ह्य असौ अगदत् निर्वाचनेन दलानि मिलित्वा देशस्य जनतायाश्च हिताय कार्यं कर्तुं स्पष्ट सन्देशः प्रदत्तोऽस्ति। नेपाली कांग्रेस दलस्य नेता कृष्णप्रसाद सिटौला कथयति राष्ट्रिय आगामी राजनीतिक नेतृत्वम् लोकतान्त्रिक वाम गठबन्धनेन करिष्यते। झापा जनपदस्य बारादशी स्थाने ह्य मतदातृभ्य धन्यवाद ज्ञापनम् विदधानो नेता सिटौला आगामी पञ्चवर्षेभ्य गठबन्धनस्यैव सर्वकारो भविष्यति तेन च सर्वकारेण राष्ट्रस्य राजनीत्यै गति प्रदास्यते इत्यवोचत। जय विजयौ स्वाभाविकौ भवतः इत्यतः नैराश्य विना आगामी दिनानां कृते संघटनानि विस्तार्य विकास निर्माणस्य वातावरणं स्रष्टुं गठबन्धनस्य सहकर्मिणः सर्वे जनाः नेत्रा सिटौला भेदेन आहूताः सन्ति। वर्षाभिः भञ्जितायाः मेलञ्च पेयजलायोजनायाः भूमिगत जलसरण्याः सम्भारानन्तरं भूमिगत जलसरण्यं जलप्रेषणं प्रारब्धं वर्तते। आषाढमासतः पीतायं जलसरण्यं प्रारम्भे परीक्षणस्य रूपेण स्वल्पं जलं प्रेषितं वर्तते। जलस्य काष्ठमण्डपस्थितं भूमिगत जलसरण्याः अन्तिमबिन्दुरूपं सुन्दरी जलस्थानं यावत् प्राप्त्यर्थम् आसन्न सप्ताहस्य समयो लगिष्यतीति मेलञ्च पेयजलायोजनायाः प्रवक्ता राजेन्द्र पन्तः अज्ञापयत। सप्ताहानन्तरं प्रतिदिनं सप्तदश कोटीनां पञ्चाशतो लक्षाणां च लिटर परिमाणस्य जलं भूमिगत जलसरण्यं प्रेषयिष्यते इति असौ अवोचत। रविवासरस्य सायंकालतः प्रेषितं जलं प्रारम्भे भूमिगत जलसरणीं स्वच्छीकरोति। भूमिगत सरण्याः स्वच्छीकरणानन्तरं अपरसप्ताहे मेलञ्च्याः जलं राजधानीस्थितेभ्यो ग्राहकेभ्य विस्तरयिष्यते इति च आयोजनाय प्रवक्ता पन्त असूचयत।